पञ्चदशोऽध्यायः धनीरसवन्ति फलानि क्रीणीते अश्वो नरचिक्कतरः अनेषु फलवन्तो वृक्षा इद्धन्ते धनानि लब्ध्वा स्वादुतमानि फलानि क्रीणीहि नरेषु राजा धनवत्तमः बुद्धिमान् नृपो बलवतो द्विषो जयत् भयो ग्रामी धेनुतमाम् अक्रीणात् आत्मवान् गुरुः सत्यं जानाति तमाम् प्राणिषु नरो बुद्धिमत्तमः।